हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदा आधार पृथिवेन्द्यामते माम् कस्मै देवाय हविषाभिधेम य आत्मदा बलदाजस्य विश्व उपासते प्रशिषम् यस्य देवाः यस्य छायामृतम् यस्य मृत्युः कस्मै देवाय हविषाभिधेम यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वाजस्य समुद्रम् रसजा सहाहुः यस्येमाः प्रदिशो यस्य बाहो कस्मै देवाय हविषा विधेम ये नद्यौ रुग्रा पृथिवी च दृढा येन स्वस्तभितं येन नाकाः यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम यम् क्रन्दसी अवसादस्तभाने अभ्यैक्षे ताम् मनसा रेजमाने यत्राधिसूर उदितो विभाति कस्मै देवाय हविषा विधेम आपो हयद्बृहतेर्विश्वमाजन्गर्भम् दधाना जनयन्तीरग्निम् ततो देवानाम् समवर्तता सुरेकः कस्मै देवाय हविषा विधेम यश्चिदापो महिना पर्यपश्यद्दक्षम् दधाना जनयन्तीर्यज्ञाम् यो देवेष्वधिदेव एक आसीत् कस्मै देवाय हविषा विधेम मानो अहिंसेज्जनितायः पृथिव्याजो वा दिवम् सत्यधर्मम् वा जजान यश्चापश्चन्द्रा बृहतेर्जजान कस्मै देवाय हविषा विधेम प्रजापतेन त्वदेताञ्जन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहमस्तन्नो अस्तु भजम् स्यामपतजोरजीर्णाम्